इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रशासनेन मेधावी छात्रेभ्यः वित्तीय साहाय्यं प्रदातुं पीएम विद्यालक्ष्मी योजनायै स्वीकृतिः प्रदत्ता। मन्त्रिमण्डलोपवेशने गृहीत निर्णयानां विषये नवदिल्ल्यां वार्ताहरैः साकं सम्भाषमाणः सूचना प्रसारण मन्त्री अश्विनी वैष्णवः सूचितवान् यत् छात्राः उच्चशिक्षाप्राप्तये सरलतया ऋणं प्राप्तुम् अर्हाः भविष्यन्ति। योजनायाः लाभं प्राप्तुं छात्राः एकीकृते आन्तर्जालिक पीएम विद्यालक्ष्मी इत्यस्मिन् पटले आवेदनं कर्तुं शक्ष्यन्ति। तत्रैव प्रशासनेन भारतीय खाद्य निगमाय 710,000,000,000,000 रूप्यकाणां नवीन समभागस्य निवेशः अपि सुनिश्चीकृतः। वार्ताहरान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः सूचितवान् यत् खाद्यान्नस्य क्रयणे भारतीय खाद्य निगमस्य एफसीआई इत्येतस्य महती भूमिका वर्तते। एतदर्थम् अस्य सुदृढीकरणाय अयं निर्णयः निर्णीतः। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः अद्य गोवाराज्यं प्रति यास्यति। तत्र राष्ट्रपतिः डे एट सी इत्यस्मिन् कार्यक्रमे भागं ग्रहीष्यति। एतस्मिन् कार्यक्रमे भारतीय नौसैन्यबलस्य योद्धृ विमानानां परिचालनक्षमताः प्रदर्शयिष्यन्ते, यस्मिन् आईएनएस विक्रांत विमानात् उड्डयन संचालनस्य प्रदर्शनं भविष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्याम् आतंकवाद विरोधि सम्मेलनं सम्बोधयिष्यति। द्विदिवसीय सम्मेलनस्य अस्य आयोजनं गृहमन्त्रालयस्य राष्ट्रियान्वेषणाभिकरणेन क्रियते। सम्मेलनस्य उद्देश्यं सम्पूर्णप्रशासनस्य दृष्टिकोणस्य भावनायाम् आतंकवादान् विरुध्य कार्याचरणमिति वर्तते। झारखण्ड राज्य विधानसभा निर्वाचनात् पूर्वं नैर्वाचनिक प्रचारः तीव्रः भूतः। ह्यः हजारीबागनगरे निर्वाचनसमारोहं सम्बोधयन् भाजपेति दलस्य वरिष्ठा नेत्री स्मृति ईरानी इत्येषा अभियोगं कृतवती यत् जेएमएम कांग्रेस दलयोः नेतारः महिलानां विरुद्धं अपमानजनकं भाषणं कुर्वन्ति। अपरत्र सरायकेला क्षेत्रे एकस्मिन् जनसमूहानां समारोहे वरिष्ठः झामुमो दलस्य नेता मुख्यमन्त्री च हेमन्तसोरेनः आरोपान् निराकृतवान्। महिलासशक्तिकरणार्थम् अनेकाः उपक्रमाः विहिताः इत्यपि उक्तवान्। अवधेयास्पदं वर्तते यत् अस्मिन् मासे 13-20 दिनांकयोः 81-सदस्यात्मिकायाः विधानसभायाः निर्वाचनं द्वयोः चरणयोः भविष्यति। तत्रैव मतगणना 23-दिनांके भविष्यति। महाराष्ट्र विधानसभा निर्वाचनार्थमपि प्रचारः गतिम् अवाप्नोत्। अस्य मासस्य 20-दिनांके एतस्मिन् राज्ये मतदानं भविष्यति। 55वां अन्ताराष्ट्रिय चलच्चित्र महोत्सवः अस्य मासस्य 20-दिनांके गोवायां समारप्स्यते। नवदिवसात्मके एतस्मिन् महोत्सवे फिल्म बाजार इत्याख्यस्य 18वां संस्करणं सम्मिलितं भविष्यति, यद्धि 25 दिनांकं यावत् प्रचलिष्यति। डोनाल्ड ट्रम्प इत्येषः 77-200 यावत् इलेक्टोरल कॉलेज इत्येतान् मतान् प्राप्य डेमोक्रेट दलस्य कमला हैरिस इत्येतां पराजयित्वा अमेरिका राष्ट्रपति निर्वाचने निर्णायकं विजयम् अधिगतवान्। अवधेयास्पदं वर्तते यत् राष्ट्रपति पदस्य प्रत्याशी विजयम् अधिगन्तुं 77-200 मतानाम् आवश्यकता भवति। डोनाल्ड ट्रम्पः पेन्सिल्वेनिया, जॉर्जिया, उत्तरी कैरोलिनां समेत्य अन्येषु राज्येषु विजयं प्राप्तवान्। स्वकीये विजयोद्बोधने असौ समग्रविश्वे युद्धान् समापयितुं प्रमुखनीतिगत निर्णयानां विषये संकेतं प्रदत्तवान्। टेनिस क्रीडायां ऋतिक चौधरी बोलीपल्ली फ्रांसिस्को कैब्राल इत्यनयोः युगलं फ्रांसदेशस्य मेट्ज नगरे मोसोय ओपन टेनिस प्रतिस्पर्धायाः